राम गीता जी का पाठ आठवां अध्याय श्लोक 11 से 20 तक। राम
वसुदेव सुचन्द्रेयं पंचजानोरमर्दनं देवकी करमानन्दं कृष्णं वन्दे जगद्गुरुं यदक्षरं वेदविदो वदन्ति विशान्ति यद्यतयो वीतरागीच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोहृदि निरोध्यतो मूर्ध्नाधायात्मनः प्राणः मास्तुतो योगधारणाम् ॐमेत्येकाक्षरं ब्रह्म व्याहरन्नामनुस्मरन् यः प्रयाते त्यजन् देहं स जाति परमाङ्गसिम् अनन्यते सा सततं यो मां स्मरति नित्यश तस्याहं सुलभ पातु नित्ययुक्तस्य योगिना मामुपेत्य पुनर्जन्म सुखालयमशाश्वतम् आप्नुवन्ति महात्मान संसिद्धिं परमाङ्गता आब्रह्मभुवनाल्लोक पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते सहस्रयुगपर्यन्तो महर्यद्ब्रह्मणो विदुः रात्रिं युगसहस्रान्तं ते होरात्रविदो जनाः अव्यक्ताद्यक्तयः सर्वा सर्ववन्त्यः रागमे रात्यागमे प्रलीयन्ते सत्रैवाव्यक्तसंज्ञके भूतग्रामसहेवायं भूत्वा भूत्वा प्रलीयते रात्यागमेव सर्पार्थ प्रभवत्यः रागमे परस्तस्मत्तु भावोऽन्यो व्यक्तो व्यक्तात् सनातन यस्य सर्वेषु भूतेषु नश्यसु न विनश्यति परस्तस्मत्तु भावोऽन्यो व्यक्तो व्यक्तात् सनातन यस्य सर्वेषु भूतेषु नश्यसु न विनश्यति वसुदेव सुचन्द्रेयं पंचजानोरमर्दनं देवकी करमानन्दं कृष्णं वन्दे जगद्गुरु कृष्णं वन्दे जगद्गुरु
हरि शरणं हरे 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 शरणम हरे शरणम हरे शरणम हरे शरणम हरे शरणम हरे शरणम हरे शरणम।